कोन्वाम् मित्रावरुणामृतायन्ति वो वा महःपार्थिवस्य पादे ऋतस्य पाददसिद्रासीधान्नो यज्ञायदेवापशुभोनवाचानि येनो मित्रो वरुणोर्यमाजुरिन्द्रर्भुक्षामरुतो जुषन्त नमोभिर्वाजे दधते सुवृक्तिम् सोमम् रुद्राय मीरुषे सजोराः आवाम् ज्येष्ठास्विना हुवध्यैवादस्य पद्मन् रक्षस्य पुष्टौ उदादिवो असूराजमन्मप्रान्धांसि वयज्य वे भरध्वम् प्रदक्षणो दिव्यः कण्वहोता ऋजो दिवस्रजो रावादो अग्निः पूषा भगः प्रभृते विश्वभोजा आदिन्नजग्मुरास्वस्वनाः प्रवो रयम् युक्तास्वम् भरध्वम् राजेशेव से दधि तधीः सुसेवये मयि रौसिजस्य होता देवये वामरुतस्तुराणाम् प्रभो वायुम् रथयुजम् कृणध्वम् रदेवम् विप्रम् परिकारमर्कैः शुद्ध्यवरुदसामः पुरम् धेर्वस्वीर्नो अत्र पत्नीराधिजेधुः उपपजेषेवन्देभिः सूषैः प्रयक्वीरिवश्चिरयद्भिरर्कैः उषासा नक्ताभिषीरविश्वमाहावहतो मत्यायज्ञम् अभिवो अर्चे पोष्यावतो नृन्वासोष्पदिन्द्रतारम्बराणः धन्यासजोषाधिषणा नमोभिर्वनस्पतीम् रोषधीराजयेः तुजेनस्तने पर्वताः सन्धस्वैतभोजेव स भोनवीराः हरिदात्योजसदा नो बद्धान्नस्वम् सौन्दर्यो अभीष्टौ विष्णो अस्तोषि भूम्यस्य गर्भम् त्रितो न पादमपांसु वृक्ति वृणीते अग्निरेतरेण सूषैः सोऽतिष्के सोऽनिरीनाधिपना कथा महे रुद्रियाय ब्रवामकद्राये चि किदुषे भगाय आपोषधीर्वन्धुद्यौर्वना गिरयो वृक्षकेशाः शृणोदूरभूर्जाम्बतिर्गिरस्तनवस्तरीयाङ्गिषिरः परिज्वा शृण्वन्त्वा वःपुरो न शुभ्राः परिसृहाणस्याद्रेः विदाजिन्नुमाहान्तो देवदेवाब्रवापदस्मा वा जन्दधानाः वयश्च न शुभ्वा आवयन्दिक्षुभावत्तमनूयतम् वधस्मैः आयीर्यालिपार्थिवा निजन्मा पश्चाच्छासुमकायवोचम् वर्धन्ताम् जावो गिरश्चन्द्राग्रावुदावर्धन्तामभिराधार्णाः पदे पदे मे जिमानिधायवरोत्रीवा शक्राया पाजुभिश्च शिषक्तुमातामणीरदानस्मत्सौरिभर्युगस्तुगणीः कथादासे मनमासा सुतानो ने वया मरुतो अच्छोक्तौ प्रश्रावतो मरुतो अच्छोक्तौ मालोहिर्बुद्ध्यो ऋषेधादस्माकम् भूतुपमाधिमणिः इति चिन्नः प्रदायी पशुपत्यैदेवा सोमनदे मर्त्यो वा देवा सोमनदे मर्त्यो वः अत्रा शिवाम् तन्वो धाशिवस्याधराम् चिन्मे निर्जग्रसीत ताम् वो देवाः सुमतिमूर्जयन्तीमिषमस्यामवसभस्वसारोः सा नः सुदानुर्मृणयन्ती देवी प्रतिद्रवन्ती श्रीराजगम्याः अभिनयिलायूथस्य मालास्मन्नदीभिरुर्वशीवागृणातु उर्वशीवा बृहद्दिवागे नाराभ्योन्वारा प्रभृतस्यायोः शिषक्तुरवोद्यव्यस्य पुष्टेः